एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली निगदति विकासस्य कार्येषु मतभेदस्य स्थापनेन विना सर्वैर्मिलित्वा अग्रे वर्धनीयम् चितवन जनपदस्य भरतपुरे निर्मितस्य षट्पंक्तियुतस्य मार्गस्य पूर्वेद्युः उद्घाटनं विदधानः प्रधानमन्त्री ओली सदा राजनीतेः निर्वाचनस्य चैव विषये न प्रवर्त्य विकासे ध्यानप्रदानम् आवश्यकं भवति एतदर्थं एकीभूय प्रवर्तनस्य विकल्पो नास्तीति उदैरयत् तदवसरे प्रधानमन्त्री ओली पूर्वपश्चिम राजमार्गः अतिरिक्तः विस्तृतः करिष्यते चेति उदघोषयत् देशे सप्तचत्वारिंशदुत्तर द्विसहस्रतम विक्रमवर्षस्य अनन्तरं भौतिक पूर्वाधारस्य क्षेत्रे विहितः विकासः सर्वैः अनुभूतोऽस्तीति च प्रधानमन्त्री ओली अवोचत् एकादशस्य त्रयोदश कोटीनां च रूप्यकाणां व्ययेन निर्मितस्य भरतपुरस्य आसन्न सप्त किलोमीटर मितस्य षट्पंक्तियुतस्य मार्गस्य शिलान्यासोऽपि तात्कालिकसमये प्रधानमन्त्रिणा ओलिना एव विहितः आसीत् तत्पूर्वं पूर्वेद्युरेव चितवन जनपदस्यैव इच्छा कामना ग्रामपालिकायाः प्रशासकीय भवनस्य उद्घाटनं विदधानः प्रधानमन्त्री ओली देशविकासाय स्थिरतायाः आवश्यकता भवतीत्यतः नेपाली कांग्रेस नेकपा एमाले इति विपुलदलद्वयं मिलित्वा वर्तमान सर्वकारः निर्मितोऽस्ति सर्वकारस्य प्राथमिकतायां सुशासनं विकासश्च वर्तते इति समस्पष्टयत् तदवसरे प्रधानमन्त्री ओली सर्वकारस्य परिवर्तनं भविष्यतीति कुप्रचारे विश्वासं न कृत्वा विकासनिर्माणयोः कार्येषु परिवर्तितुं सर्वान् विकासनिर्माणयोः कार्येषु प्रवर्तितुं सर्वान् अनुरुणत् प्रधानमन्त्री ओली समृद्धो नेपालः सुखिनो नेपालिनश्चेति नेपालिनाम् आकांक्षां पूरयितुं सर्वकारः पूर्णरूपेण प्रवर्तितोऽस्तीति चर्चयन् स्थानीयस्तरैरपि अभियानेऽस्मिन् प्रवर्तितमस्तीति आत्मना अनुभूतो वर्तते इति उदैरयत् गृहमन्त्री रमेशलेखकः भाषते संविधानविरोधिनि गतिविधौ प्रवर्तनस्य सौविध्यं कस्मै अपि न भवति कास्कीजनपदस्य पोखरायां ह्य प्रारब्धं गण्डकी प्रदेशस्तरीय सुरक्षोपवेशम् उद्घाटयन् गृहमन्त्री लेखकः संविधानविरोधिषु गतिविधिषु संलग्नः एक केऽपि दण्डयन्ते एवेति प्रतिबद्धतां व्यक्तवान् संविधानस्य अभ्यन्तरे स्थित्वा विरोधः समर्थनञ्च कर्तुं शक्यते परं संविधानविरोधिनः हिंसात्मक गतिविधयः कर्तुं न शक्यन्ते इति च गृहमन्त्री लेखकः उदैरयत् असौ विपदः उच्च संकटयुत जनपदेषु पूर्वकार्याणि कृत्वा सम्भावित संकटस्य समाधानाय तत्परावस्थायां स्थातुं परामृशन् विपद संकट व्यवस्थापन कक्षं संचालयितुं च परामृशत् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ कथयति देशस्य स्वतन्त्रतायाः भौगोलिक्याः अखण्डतायाः स्वाधीनतायाः समुदायानां हितस्य च कृते सामाजिक सञ्जालस्य नियमनम् आवश्यकं वर्तते ह्य संचारिका समूहस्य नवम महाधिवेशने मन्त्री गुरुङ नियमनस्य कृते अधुनावधि मन्त्रालये भाइबर चिकटक विचार प्रवृत्तयः केचन सामाजिक सञ्जालाः सम्पर्क केन्द्रे सूचीकृताः सन्तीति असूचयत् तदवसरे संचार मन्त्री गुरुङ राष्ट्रिय सभातः पारितीकृतं मीडिया काउन्सिल विधेयकं सम्प्रति प्रतिनिधि सभायाः शिक्षा स्वास्थ्य समितौ विमर्शनस्य क्रमे अस्तीति अज्ञापयत् संचारिका समूह नेपालस्य नवम महाधिवेशनस्य अवसरे ह्य संचार सूचना प्रविधि मन्त्री गुरुङ अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं संचारिकाग्रणी सम्मानं पत्रकाराभ्यां डॉ हरिकला अधिकारिणे उषा लोहनी इत्याभ्यां च प्रादात् एवमेव अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीय संचारिका समानता पुरस्कार पत्रकाराय धन विश्वकर्मा इत्यस्मै प्रदत्तो वर्तते पूर्वपश्चिम राजमार्गस्य अन्तर्गते बारा जनपदस्य जितपुर सीमरूप महानगरपालिकायाः षोडश ओडा क्षेत्रस्य भूपुलवर्तिनी मार्गे ह्य ट्रिप्पर यान कारयानयोः परस्परं संघटितयोः सतः जनद्वयमृतम् वर्तेते। जनद्वयमृतम् वर्तते। निजगढस्थानात् पथलैयास्थानम् प्रति त्रिपुरयानम् विपरीत दिशः आगच्छता कारयानेन सह संगठितम् सत् कारयाने आरूढौ सर्लाहि जनपदस्य बरथवा नगरपालिकायाः 47 वर्षीयः नारायण हरि शर्मा अधुनावधि अज्ञात परिचयः कारयान चालकस्य मृतावीति बारा जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकः विजयराज पण्डितः असूचयत्। एवमेव दाङ जनपदे ह्य सायं दुरापन्नायां बसयानस्य दुर्घटनायां निपत्य जनद्वयं मृतं वर्तते। घटनायां एको जनः घटनास्थले एव, एकश्च उपचारस्य क्रमे मृतोऽस्ति। दशाधिकाः यात्रिणः आहताः वर्तन्ते। कृष्णनगरात् लमहिस्थानं प्रति प्रस्थीयमानं बसयानं राप्ती ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य लछवा स्थाने दुर्घटितं। सद् राजपुर ग्रामपालिकायाः पञ्चमौडा क्षेत्र निवासी 58 वर्षीयः तिल सरोज यादवः अधुनावधि अज्ञात परिचया एका महिला च मृतेति दाङ जनपदस्य प्रहरी प्रमुखः प्रहरी उपरीक्षकः अर्जुन प्रसाद तिमिल्सिना असूचयत्। एवमेव हेटौडा कान्ति राजमार्गान्तर्गतस्य मकवानपुर जनपदस्य मकवानपुर गढ़ी ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य धरमपानी स्थाने जीपयानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः। दुर्घटनायां 14 जनाः आहताः वर्तन्ते। काष्ठमण्डपात् हेटौडा स्थानं प्रति गच्छतः जीपयानस्य दुर्घटनायां रौतहट जनपदस्य दुर्गा भवानी ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य 50 नीलम देवी राउत सर्लाही जनपदस्य बागमती ग्रामपालिकायाः सप्तमौडा क्षेत्रस्य 13 मानुषी मगर च वर्तेते इति प्रहरिणा ज्ञापितमस्ति। अस्य वर्षस्य वर्षाभ्य पूर्वसमये दुरापन्नायां विपज्जन्य घटनायां 141 जनाः मृताः सन्ति। घटनायां 57+102 जनाः आहताः सन्ति इति राष्ट्रिय विपद न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितं वर्तते। फाल्गुन मासात् ज्येष्ठ मासस्य तृतीय सप्ताहं यावत् वर्षाभ्य पूर्वसमयो मन्यते। प्राधिकरणस्य अनुसारेण वर्षाभ्य पूर्वसमये स्थानीयस्य वातस्य प्रभावेण दिवासमये सायंकाले रात्रौ च वातावरणस्य दूषणात् देशस्य कतिषुचित् स्थानेषु झञ्झावातः मेघगर्जनं वज्रपातश्च सम्भवन्ति। इति समाचारः।